ओम नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। ब्रह्मोवाच नौमीढ्यते ब्रवपुषे तडिदम्बराय गुञ्जावतंस परिपिच्छलसन्मुखाय वन्यस्रजे कवलवेत्र विषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय अस्यापि देववपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि नेषेमहित्ववसितुम् मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ज्ञाने प्रयासमुदपास्य न मन्त एव जीवन्ति सन्मुखरिताम् भवदीयवार्ताम् स्थाने स्थिता श्रुतिगताम् तनुवाङ्मनोभिर्ये प्रायशो जितजितोऽप्यसितैस्त्रिलोक्याम् श्रेयः श्रुतिम् भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये तेषामसौ क्लेशल एव शिष्यते नान्यत् यथा स्थूलतुषावघातिनाम् पुरेह भूमन् बहवोऽपि योगिनस्त्वदर्पितेः निजकर्मलब्धया विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेञ्जोच्युतते गतिम् पराम् तथापि भूमन् महिमा गुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः अविक्रियात् स्वानुभवादरूपतो यनन्यबोध्यात्मतया न चान्यथा गुणात्मनस्तेऽपि गुणान् विमातुम् हितावतीर्णस्य कैशिरेस्य कालेन यैर्वा विमितासु कल्पैर्भूपान् सवः खेमिः काद्युभासः तत्तेऽनुकम्पाम् सुसमीक्षमाणो भुञ्जान एवात्मकृतम् विपाकम् हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवे तयो मुक्तिपदे सदाय भाक् पश्ये स मे नार्यमनन्ताद्ये परात्मनि त्वय्यपि मायि मायिनि मायाम् वितत्ये क्षितुमात्मवैभवम् यहम् किया नैच्छमिवार्चिरग्नौ अत क्षमस्वाच्युतमे रजो भुवो यजानतस्त्वत्पृथगीषमानिनः अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति क्वाहम् तमो महदहम् खचराग्निवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः क्वे दृग्विधा विगणिताण्डपराणुचर्या वाताध्वरोम विवरस्य च ते महित्वम् उत्क्षेपणम् गर्भगतस्य पादयोः किम् कल्पते मातुरधोक्षजागसे किमस्ति नास्ति व्यपदेशभूषितम् तवास्ति कुक्षे कियदप्यनन्तः जगत्त्रयान्तो दधिसंप्लवो दे नारायणस्योदरनाभिनालात् विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किम् त्वीश्वरत्वन्न विनिर्गतोऽस्मि नारायणस्त्वम् न हि सर्वदेहिनामात्मास्य धीशाखिल लोकसाक्षी नारायणोऽङ्गम् नरभूजलायनात्तच्चापि सत्यम् न तवैव माया तच्चेज्जलस्थम् तव सज्जगद्वपुः किम् मे न दृष्टम् भगवंस्तदैव किम् वा सुदृष्टम् हृदि मे तदैव किम् नो सपद्येव पुनर्व्यदर्शी अत्रैव माया धमनावतारे यस्य प्रपञ्चस्य बहिःस्फुटस्य कृत्स्नस्य चान्तर्जठरे जनन्या माया त्वमेव प्रकटीकृतम् ते यस्य कुक्षाविदम् सर्वम् सात्मम् भाति यथा तथा तत्त्वय्यपिह तत्सर्वम् किमिदम् मायया विना अद्यैव त्वदृतेऽस्य किम् ममनते माया त्वमादर्शित मे कोऽसि प्रथमम् ततो व्रजसुहृत् वत्सा समस्ता अपि तावन्तोऽसि चतुर्भुजास्तदखिलैः साकम् मयोपासितास् तावन्त्येव जगन्त्यभूस्तदमितम् ब्रह्माद्वयम् शिष्यते अजानताम् त्वत्पदवीमनात्मन्यात्मात्मना भासि वितत्य मायाम् सृष्टा विवाहम् जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः सुरे स्पृशिष्वीश तथैव नृष्वपि त्रियक्षु यादस्वपि ते जनस्य जन्मासताम् दुर्मदनिग्रहाय प्रभो विधात सदनुग्रहाय च को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोऽतीर्भवतः स्त्रिलोक्याम् क्व वा कथम् वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् तस्मादिदम् जगदशेषमसत्स्वरूपम् स्वप्नाभमस्तधिषणम् पुरदुःखदुःखम् त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयं ज्योतिरनन्त आद्यः नित्योऽक्षरो जस्र सुखो निरञ्जनः पूर्णो द्वयो मुक्त उपाधितो मृतः एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते गुरुवर्कलब्धोपनिषत्सु चक्षुषा ये ते तरन्तीव भवान् ऋतां बुधिम् आत्मानमेवात्मतया विजानतां तेनैव जातं निखिलं प्रपञ्चितम् ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्वा महेर्भोगभवा भवौ यथा अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्तरितज्ञभावात् अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणा विवाहनि त्वामात्मानं परं मत्वा परमात्मानमेव च आत्मा पुनर्बहिर्मृग्य अहोग्य जनताज्ञता अन्तर्भवेनन्तभवन्तमेव यतत्यजन्तो मृगयन्ति सन्तः असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमुयन्ति सन्तः अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि जानाति तत्त्वं भगवन्महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् तदस्तु मे नाथ स भूरि भागो भवेत्र वान्यत्र तु वातिरश्चाम् येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् अहोति धन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा यासां विभो वत्सतरात्मजात्मना यतृप्तयेद्यापि न चालमध्वराः अहो भाग्यं नन्दगोपव्रजौकसां यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् एषां तु भाग्यमहिमाच्युत तावदास्तामेकादशैव हि वयं बत भूरिभागाः एतद्धृशीकचषकैरसकृत्पिबामः शर्वादयोऽङ्ग्र्युदजमध्वमृतासवन्ते तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि गतमाङ्घ्रिरजोऽभिषेकम् यज्जीवितं तु निखिलं भगवान् मुकुन्दस्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव एषां घोषनिवासिनामुत भवान् किं देवरातेति नश्चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन्मुह्यति सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते तावद्रागादयस्तेनास्तावत्कारागृहं गृहं तावन्मोहोऽङ्घ्रिनिगडो यावत्तृष्ण न ते जनाः प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो मनसो वपुषो वाचो वैभवं तव गोचरः अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् त्वमेव जगतां नाथो जगदे तत्तवार्पितम् श्रीकृष्णवृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् उद्धर्मसार्वरहर क्षितिराक्षसद्रुगाकल्पमार्कमर्हन् भगवन् नमस्ते श्रीशुक उवाच इत्यभिष्टूय भूमानं त्रिपरिक्रम्य पादयोः नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् वत्सान् पुलिनमानिन्ये यथा पूर्वसखं स्वकम् एकस्मिन्नपि यातेऽब्धे प्राणेशं चान्तरात्मनः कृष्णमाया हता राजन् क्षणार्धं मे निरेर्भकाः किं किं न विस्मरन्तीह मायामोहितचेतसः यन्मोहितं जगत्सर्वमभीक्ष्णं विस्मृतात्मकम् ऊचुश्च सुहृदः कृष्णं स्वागतं ते तिरंहसा नैकोऽप्यभोजिकवल एहीतः साधु भुज्यताम् ततो हसन् ऋषिकेशोऽभ्यवहृत्य सहार्भकैः दर्शयंश्चरमा जगरं न्यवर्ततवनाद्व्रजम् बर्हप्रसूननवधातु विचित्रिताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः वत्सान् गृणन्ननु गगीतपवित्रकीर्तिर्गोपीदृगुत्सवदृशिः प्रविवेशगोष्ठम् अद्यानेन महाव्यालो यशोदानन्द सूनुना हतो विता वयम् चास्मदिति बाला व्रजे जगुः। राजोवाच ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथम् भवेत्, यो भूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम्। श्रीशुक उवाच सर्वेषामपि भूतानाम् नृपस्वात्मैव वल्लभः, इतरे पत्यवित्ताद्यास्तद्वल्लभतयैव हि। तद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम्, न तथा ममतालम्बी पुत्रवित्तगृहादिषु। देहात्मवादिनाम् पुंसामपि राजन्यसत्तम, यथा देहः प्रियतमस्तथा न यनुये च तम्। देहोऽपि ममता भाग् चेत्तर्यसौ नात्मवत्प्रियः, यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी। तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम्, तदर्थमेव सकलम् जगदेतच्चराचरम्। कृष्णमेनमवे हित्वमात्मानमखिलात्मनाम्, जगद्धिताय सोऽप्यत्र देही वा भाति मायया। वस्तुतो जानतामत्र कृष्णम् स्थाष्णुचरिष्णु च, भगवद्रूपमखिलम् नान्यद्वस्त्विह किञ्चन। सर्वेषामपि वस्तूनाम् भावार्थो भवति स्थितः, तस्यापि भगवान् कृष्णः किमतद्वस्तुरूप्यताम्। समाश्रिताये पदपल्लवप्लवम् महत्पदम् पुण्ययशो मुरारे, भवाम्बुधिर्वत्सपदम् परम् पदम् 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 यद्विपदाम् न तेषाम्। एतत्ते सर्वमाख्यातम् यत्पृष्टोऽहमिह त्वया, यत्कौमारे हरिकृतम् पौगण्डे परिकीर्तितम्। एतत् सुहृद्भिश्चरितम् मुरारेरघार्दनम् शाद्वलजे मनम् च, व्यक्तेतरद्रूपमजोर्वभिष्टवम् शृण्वन् गृणन्नेति नरोऽखिलार्थान्। एवम् विहारैः कौमारैः कौमारम् जहतुर्व्रजे, निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।